यज्ञस्य वो रथ्यम् विष्पतिम् विशाम् होतारमक्तोरतिथिम् विभावसम् शोचम् शुष्का सुहरिणीषु जर्भुरद्वृषा केतुर्यजतोऽद्यामशाजत इममन्दस्पा बुभजे अकृण्वत धर्माणवग्निम् विदधस्य साधनम् भक्तुन्न जह्वमुषसः पुरोहितम् तनो न पादमरुषस्य निंसते बलस्य नेधा विपणेश्च मन्महे भजा अस्य प्रहुता आसुरत्तमे यदा घोरासो अमृतत्तमा शतादित्यनस्य दैव्यस्य दर्किरन् ऋतस्य हि प्रसिद्धिर्द्योरुरव्यचो नमो मह्या अरमतिः परीजसे इन्द्र मित्रो वरुणः सञ्जगित्रिरेथो भगः सपिता बोधदक्षसः पुररुद्रेण जजिना आजन्ति सिन्धवस्तिरा महे मरमदिन्दधन्विरे येभिः परिज्ञा परिजन्नुरज्रजो विरोरुवज्जठरे विश्वभक्षते क्राणारुद्रा मरुतो विश्वकृष्टयो दिवश्येनासो असुरस्य नीणयाः तेभिश्चष्टे वरुणो मित्रो अर्जमेन्द्रो देवेभिरर्वशेभिरर्वशः इन्द्रे भुजम् शशमानास आशतसो रोदृशीके वृषणश्च पांस्ये व्रजेन्वस्यार्हणा तदक्षिरे जुजम् वज्रम् वृषदनेषु कारवाः सोरश्चिदा हरितो अस्य रेरमदिन्द्रादा कश्चिद्भजते तवीजसः भीमस्य वृष्णा जठरादभिश्वसा दिवे दिवे सहुरिस्तन्नवाधितः स्तोमम् वा अद्य रुद्राज शिक्वसे क्षयद्वे राजनमसा दिदिष्टन येभिः शिवस्ववाम् ए भजावभिर्दिवस्य शक्तिस्वजशानिकामभिः ते हि प्रजाया अभरन्त विश्रवो बृहस्पतिर्वृषभः सोमजामजः यज्ञैरथर्वा प्रथमो विधारयद्देवा दक्षैर्भृगवः सञ्जगित्रिरे ते हि द्यावा पृथिवी भोरिरेतसा नराशंसश्चतुरङ्गो जमादितिः देवस्पष्टा त्रविणोदारभक्षणः प्ररोदसे मरुतो विष्टुररहिरे उतस्य न उषजा मुर्भिजा कविरहि शृणोतु बुद्ध्या हवीमने स्वर्यामासा विचरन्तादिभिक्षिता धियाशमे नहुषे अस्य बोधतम् प्रणः पोषा च रथम् विश्वदेव्योपान्नपादमतु भाजुरिष्टये आत्मानम् वस्य अभिवातमर्चत तदश्विना सुह वाजामनिश्रुताम् विशामासामभजानामधिक्षितम् गेर्भिरस्वयश सङ्गृणीमसे नाभिरविश्वाभिरदितिमनर्वणभक्तोर्युवानन् रमणा अधापतिम् रे भदत्र जनुषापोर्भा अङ्गिरा ग्रामाण ओर्ध्वा अभिचक्षुरध्वरम् येभिरविहाजा अभवद्विचक्षणः पाधः स्वमेकम् स्वधिदर्पणन्वते